इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः आदौ मुख्यवार्ताः ऑपरेशन सिन्दूर इत्यस्य विषये अद्य लोकसभायां विशिष्टा चर्चा अभवत् सर्वकारेण सेनायाः पराक्रमः प्रशंसितः सर्वोच्चन्यायालयेन अद्य कलकत्ता उच्चन्यायालयस्य अन्य अप्रगतिशीलवर्गाणां संशोधितसूच्याः कार्यान्वयनस्य अन्तरिमादेशः स्थगितः हरवानक्षेत्रे महादेव इत्यभियानस्य अन्तर्गतं सुरक्षाबलैस्सह द्वन्द्वे त्रयः आतंकवादिनः मारिताः स्वीडन देशस्य राजधान्यां स्टॉकहोम नगरे अमेरिका चीन देशयोः मध्ये नूतन व्यापार वार्ता अद्य आरप्स्यते अपि च दिव्या देशमुखः एफआईडीई महिला विश्व चषके कोनेरु हम्पी इत्येतां पराजित्य ग्रैंडमास्टर इति सम्मानम् अध्यगच्छत् सद्य एव पहलगाम इत्यत्र जातम् आतंकी प्रकरणं विरुध्य भारतस्य सैन्य प्रतिक्रियायाः ऑपरेशन सिन्दूर इत्यस्य विषये अद्य लोकसभायां विशिष्टा चर्चा अभवत् रक्षामन्त्री राजनाथसिंहः प्रोक्तवान् यत् ऑपरेशन सिन्दूर इति अभियानेन पाकिस्तानाय स्पष्टः सन्देशः प्रेषितः अस्ति यत् आतंकेन सह शान्तिवार्ता न चलिष्यति अस्मिन्नेव क्रमे तेन अवधीरितं यत् प्रत्युत्तरप्रदाने पाकिस्तानस्य शताधिकाः आतंकिनः मारिताः नव आतंकी स्थानकानि अपि नष्टानि अभवन् श्रीसिंहः पाकिस्तानम् अवरोद्धुम् S-400 आकाश चेत्यादीनां प्रणालीनाम् उपयोगं कर्तुं सशस्त्रबलानां प्रशंसां कुर्वन् प्रोक्तवान् यत् अस्माकं कीदृशी अपि महत्वपूर्णा भारतीया सम्पत्ति क्षतिग्रस्ता नाभवत् सहैव तेन प्रोक्तं यत् संघर्षविरामे कस्यापि बाह्यदेशस्य हस्तक्षेपः नासीत् सिंहेन पाकिस्तानस्य उपरि आरोपः प्रख्यापितः यत् पाकिस्तानेन आतंकवादः स्वकीया राज्यनीतिरूपेण स्वीकृतः अस्ति सहैव तेन कथितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतेन पाकिस्तानं विरुध्य कठोराचरणं कर्तुं निर्णयः स्वीकृतः अस्ति
पाकिस्तान की नीति और चरित्र को लेकर कोई भ्रम नहीं रहना चाहिए यह एक ऐसा देश है जो वैश्विक आतंकवाद की नर्सरी है और उन्होंने इसको अपनी स्टेट पॉलिसी का भी एक आधार बनाया हुआ है अध्यक्ष महोदय मैं लोकतंत्र के मंदिर में खड़े होकर यह बात कह रहा हूं कि भारत को 1000 ककट्स देने का सपना पालने वालों को नींद से जग जाना चाहिए यह मोदी जी के नेतृत्व वाला नया भारत है जो आतंकवाद के खिलाफ किसी हद तक जाता है
सर्वोच्च न्यायालयेन अद्य कलकत्ता उच्च न्यायालयस्य अन्तरिम आदेशः स्थगितः येन पश्चिम बंगाल सर्वकारेण अधिसूचितायाः ओबीसी इति अन्य अप्रगतिशील वर्गाणां संशोधित सूच्याः कार्यान्वयनं स्थगितम् भारतस्य मुख्य न्यायाधीशेन बी आर गवई वर्येण न्यायमूर्तिः के विनोद चन्द्रन इत्यनेन न्यायमूर्तिः एन वी अंजारिया इत्यनेन च पश्चिमबंग सर्वकारेण प्रख्यापितायाः विशिष्ट अनुमति याचिकायाः विषये सूचना निर्गमने स्थगनादेशः पारितः सर्वोच्च न्यायालयः उच्चन्यायालयस्य तर्कं प्रति आश्चर्यं प्रकटितवान् यत् ये केवलं विधायिका ओबीसी इति अन्य अप्रगतिशील वर्गाणां वर्गीकरणम् अनुमोदयितुम् अधिकारं धारयति एतत् स्पष्टीकृत्य यत् आरक्षणं कार्यकारिक्षेत्राणां परिधौ अन्तर्भवति मुख्य न्यायाधीशः गवईवर्यः उच्चन्यायालयस्य टिप्पण्याम् असहमतिं प्रकट्य अकथयत् यत् राज्येण 2020-2000 अधिनियमे संशोधनं कर्तुं स्वकीयायाम् अनुसूच्यां नवाः कक्षाः योजयितुं च सूचना प्रपत्रस्य प्रस्तुतीकरणं विधानमण्डल समक्षं विधेयकस्य प्रस्तुतीकरणं च आवश्यकरूपेण विधातव्यम् आसीत् अवधेयं यत् कलकत्ता उच्चन्यायालयेन जूनमासस्य 17 दिनांके ओबीसी ए ओबीसी बी इत्यनयोः समूहयोः 40.1% उपश्रेणिभ्य राज्येण प्रकाशिताः आरक्षणसम्बद्धाः अधिसूचनाः स्थगिताः आसन् शीर्षन्यायालयः सप्ताहद्वयाभ्यन्तरं प्रकरणे अस्मिन् कार्याचरणं विधास्यति श्रीनगरस्य हरवानस्य लिडवासक्षेत्रे अद्य महादेव इत्यभियानस्य अन्तर्गतं सुरक्षाबलैस्सह द्वन्द्वे त्रयः आतंकवादिनः मारिताः इति भारतीयसेनया एक्स इत्यत्र प्रकाशिते सन्देशे प्रोक्तम् अभियानेन सह अन्वेषणम् अधुनापि प्रचलति कश्मीरस्य आरक्षिमहानिदेशकेन आकाशवाण्या सह संवादे प्रोक्तं यत् हतानाम् आतंकवादिनाम् अभिज्ञानम् अधुनापि न अभवत् संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयम् कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति अद्य स्वीडन देशस्य राजधान्यां स्टॉकहोम नगरे अमेरिका चीन देशयोः मध्ये नूतन व्यापार वार्ता आरप्स्यते। वार्तायाः अस्याः नेतृत्वं अमेरिका देशस्य वित्त सचिवः स्कॉट बेसेंट, चीन देशस्य उप प्रधानमंत्री हे लीफेंग च करिष्यतः। विश्वस्तरे बृहत्तमे अर्थव्यवस्थे स्वकीययोः वर्तमान व्यापार संघर्षं विरामम् इतोपि 90 दिनानि यावत् विस्तारयितुं सहमते भवितुं शक्नुतः स्मः। विद्यमानस्य संघर्ष विरामस्य समाप्तिः अग्रिमे मासे 12 दिनांके भविष्यति। संघर्ष विरामस्य समये उभय देशो परस्परं शुल्कम् अस्थायी रूपेण न्यूनीकर्तुं सहमतो अभवताम्। वाशिंगटन इत्यनेन यः यूरोपीय संघेन सह सद्य एव जापान देशेन च सह व्यापार संधिः कृता अस्ति। पंजाब राज्ये मनक्वाल ग्रामात् 29 संख्याकान् तीर्थयात्रिकान् वहत् अतिभारयुक्तं वाहनं लुधियाना नगरस्य सरहिंद केनाल इत्यत्र पतितम्। अस्यां घटनायां द्वाभ्यां बालकाभ्यां तिस्रभी महिलाभी च सह 6 जनाः मृताः अपि च 19 जनाः सुरक्षोद्धार कार्यपूर्वकं रक्षिताः। यद्यपि चत्वारः यात्रिणः अधुनापि लुप्ताः सन्ति। लुधियाना नगरस्य उपायुक्तः हिमांशु जैनः अवदत् यत् एषः समूहः धार्मिकस्थलात् प्रत्यागतः आसीत्। अन्वेषणकार्यम् अपि द्रुतगत्या प्रचलति। अत्रान्तरे अन्यायां घटनायां जालंधर नगरस्य स्थानीय नागरिक चिकित्सालये प्राणवायु संयंत्रे तांत्रिक दोषेण 5 रोगिणां प्राणवायोः अनापूर्ति कारणेन मृत्यु अभवत्। एकस्य रोगणस्य स्थितिः गंभीरा अस्ति। राज्यस्य स्वास्थ्य मंत्री बलवीर सिंह वर्यः चिकित्सालयं गत्वा 24 होराभ्यन्तरं अन्वेषणं विधातुं आदेशं दत्तवान्। प्रकरणेस्मिन् प्रतिवेदनं च याचितवान्। जम्मू कश्मीरे अस्य मासस्य तृतीय दिनांके समारब्धायाः यात्रायाः अनन्तरं 70,000+ मिततः अधिकाः तीर्थयात्रिणः प्रवर्तमानां अमरनाथ यात्रां कृतवन्तः। श्रीनगरस्य दशनामी अखाड़ा भवनस्य अभ्यन्तरे श्री अमरेश्वर मन्दिरे यः चारी स्थापना इति समारोहः आयोजितः आसीत्। श्वः तस्मिन्नेव मन्दिरे नागपंचमी इति दिवसे क्षारी पूजनम् आचरिष्यते तथा च क्षारी मुबारक इत्यस्य अन्तिमा यात्रा अगस्त मासस्य 4 दिनांके पवित्र गुहातीर्थं प्रति आरप्स्यते। श्रीनगरस्य बुटशाह चौक क्षेत्रे स्थितस्य दशनामी अखाड़ा भवनस्य अमरेश्वर मंदिरे परंपरागत रूपेण चारी मुबारक इति स्थीयते। गरिष्ठोद्योग मंत्रालयेन अद्य डॉक्टर श्यामा प्रसाद मुखर्जी वर्यस्य 25,100 जन्मजयन्त्याः अवसरः राजधान्यां विशेषेण भाषणेन आचरितः। राज्यमंत्री भूपति राजू श्रीनिवास वर्मा संविधान सभायां मुखर्जी वर्यस्य भूमिकां प्रकाशयन् भारतस्य औद्योगिक संस्थागत विकासे तस्य योगदानस्य प्रशंसाम् अकरोत्। वर्मा वर्यः एकरं राष्ट्रं एकं संविधानम् इत्यस्य आदर्शाणां मूर्तरूपं, विद्वान्, राजनीतिज्ञः, निर्भीकः, संसद सदस्यः, शिक्षाविदः च इत्यादिभिः अलंकारैः तस्य प्रशंसाम् अकरोत्। मुखर्जी वर्यस्य उत्तराधिकारस्य सम्मानं कुर्वन् लघु चलच्चित्रम् अपि प्रदर्शितम्। विदेश सचिवः विक्रम मिश्री अद्य नवदिल्ल्यां जापान देशस्य विदेश प्रकरणानाम् उपमन्त्रिणा ताके हिरो फुनाकोशी इत्यनेन सह मेलनम् अकरोत्। उभयपक्षौ रक्षा सुरक्षा, आर्थिक सुरक्षा, व्यापार, निवेश, प्रौद्योगिकी आदान प्रदानं चेत्यादीन् विषयान् समेत्य भारत जापानयोः द्विपाक्षिक सम्बन्धानां विषये अपि विचाराणाम् आदानं प्रदानम् अकुरुताम्। वैश्विकानां क्षेत्रीयाणां च महत्वपूर्णेषु विषयेषु अपि तौ मतानाम् आदान प्रदानं कृतवन्तौ। श्रीमिश्री तस्य समकक्षीय च भारत प्रशांत क्षेत्रे तथा बहिः च शान्तेः, समृद्धेः, स्थिरतायाः च कृते भारत जापान विशेष सामरिक वैश्विक सहभागित्वस्य वर्धमानं महत्वं पुनः दृढीकृतवन्तौ। विदेश मन्त्रालयः अवोचत् यत् भारत जापान सम्बन्धस्य विविध परिणामेषु प्रगतिं समीक्षितुं संवादः महत्वपूर्णः आसीत् इति। श्रीमिश्रीवर्यः तस्य समकक्षा च हिन्द प्रशान्त क्षेत्रे तस्मात् परं च शान्त्यै, समृद्ध्यै, स्थिरतायै च भारत जापानयोः विशिष्ट रणनीत्याः, वैश्विक सहयोगस्य च वर्धमानस्य महत्वं पुष्टिं कृतवन्तौ। विदेश मन्त्रालयः प्रोक्तवान् यत् एषा वार्ता भारत जापानयोः सम्बन्धानां विभिन्न आयामेषु प्रगतिं समीक्षितुं सहायिका आसीत्। दिव्या देशमुखः इत्यनया अद्य FIDE महिला विश्व चषके स्वकीयेन विजयेन सह ग्रैंडमास्टर इति सम्मानम् अंगीकुर्वती चतुर्थ भारतीया महिला अभवत् इति वार्ताः।